ओम नमो भगवते वासुदेवाय। अथ द्वात्रिंशोऽध्यायः। कपिल उवाच, अथ यो गृहमेधियान् धर्मानेवावसन् गृहे, काममर्थं च धर्मान् स्वान् दोग्धिभूयः पिपर्तितान्, स चापि भगवद्धर्मात् काममूढः पराङ्मुखः, यजते क्रतुभिर्देवान् पितृंश्च श्रद्धयान्वितः, तच्छ्रद्धया क्रान्तमतिः पितृदेवव्रतः पुमान्, गत्वा चान्द्रमसं लोकं सोमपाः पुनरेष्यति। यदा चाहीन्द्रशय्यायां शेतेनन्तासनो हरिः, तदा लोकालयं यान्ति त एते गृहमेधिनां, ये स्वधर्मान्न दुह्यन्ति धीराः कामार्थहेतवे, निःसङ्गान्यस्तकर्माणः प्रशान्ताः शुद्धचेतसः, निवृत्तिधर्मनिरताः निर्ममा निरहङ्कृताः, स्वधर्माख्येन सत्त्वेन परिशुद्धेन चेतसा, सूर्यद्वारेण ते यान्ति पुरुषं विश्वतोमुखं, परावरेशं प्रकृतिमस्योत्पत्यन्तभावनम्, द्विपरार्धावसाने यः प्रलयो ब्रह्मणस्तु ते, तावदध्यासते लोकं परस्य परचिन्तकाः, क्ष्माम्भो नला निलवियन्मन इन्द्रियार्थभूतादिभिः परिवृतं प्रतिसञ्जिहीर्षुः, अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं पराख्यमनुभूय परस्वयम्भूः। एवं परेत्य भगवन्तमनुप्रविष्टा ये योगिनो जितमरुन्मनसो विरागाः, तेनैव साकममृतं पुरुषं पुराणं ब्रह्मप्रधानमुपयान्त्यगताभिमानाः। अथ तं सर्वभूतानां हृत्पद्मेषु कृतालयं श्रुतानुभावं शरणं व्रजभावेन भामिनि, आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः, योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः, भेददृष्ट्याभिमानेन निःसङ्गेनापि कर्मणा, कर्तृत्वात् सगुणं ब्रह्म पुरुषं पुरुषर्षभम्, ससंसृत्य पुनः काले कालेनेश्वरमूर्तिना, जाते गुणव्यतिकरे यथा पूर्वं प्रजायते, ऐश्वर्यं पारमेष्ठ्यं च तेऽपि धर्मविनिर्मितम्, निषेव्य पुनरायान्ति गुणव्यतिकरे सति, ये त्विहासक्तमनसः कर्मसु श्रद्धयान्विताः, कुर्वन्त्यप्रतिषिद्धानि नित्यान्यपि च कृत्स्नशः, रजसा कुण्ठमनसः कामात्मानो जितेन्द्रियाः, पितॄन् यजन्त्यनुदिनं गृहेष्वभिरताशयाः, त्रैवर्गिकास्ते पुरुषा विमुखा हरिमेधसः, कथायां कथनीयोरुविक्रमस्य मधुद्विषः, नूनं दैवेन विहता ये चाच्युतकथासुधां, हित्वा शृण्वन्त्य सद्गाथाः पुरीशमिव विद्भुजः, दक्षिणेन पथार्यम्नः पितृलोकं व्रजन्ति ते, प्रजामनुप्रजायन्ते श्मशानान्तक्रियाकृतः, ततस्ते क्षीणसुकृताः पुनर्लोकमिमं सति, पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः, तस्मात् त्वं सर्वभावेन भजस्व परमेष्ठिनं, तद्गुणाश्रयया भक्त्या भजनीयपदाम्बुजं, वासुदेवे भगवति भक्तियोगः प्रयोजितः, जनयत्यासु वैराग्यं ज्ञानं यद्ब्रह्मदर्शनं, यदास्य चित्तमर्थेषु समेष्विन्द्रियवृत्तिभिः, न विगृह्णाति वैषम्यं प्रियमप्रियमित्युत, सद्दैवात्मनात्मानं निःसृङ्गं समदर्शनं, हेयोपादेयरहितमारूढं पदमीक्षते, ज्ञानमात्रं परं ब्रह्म परमात्मेश्वरः पुमान्, दृश्यादिभिः पृथग्भावैर्भगवानेक ईयते, एतावानेव योगेन समग्रेणेह योगिनः, युज्यतेऽभिमतोऽयर्थो यदसङ्गस्तु कृत्स्नशः, ज्ञानमेकं पराचीनैरिन्द्रियैर्ब्रह्मनिर्गुणम्, अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणा, यथा महानहं रूपस्त्रिवृत्पञ्चविधः स्वराट्, एकादशविधस्तस्य वपुरण्डं जगद्यतः, एतद्वै श्रद्धया भक्त्या योगाभ्यासेन नित्यशः, समाहितात्मा निःसङ्गो विरक्त्या परिपश्यति, इत्येतत्कथितं गुर्वी ज्ञानं तद्ब्रह्मदर्शनं, येनानुबुध्यते तत्त्वं प्रकृतेः पुरुषस्य च, ज्ञानयोगस्य मन्निष्ठो नैर्गुण्यो भक्तिलक्षणः, द्वयोरप्येक एवार्थो भगवच्छब्दलक्षणः, यथेन्द्रियैः पृथग्द्वारैरर्थो बहुगुणाश्रयः, एको नानेयते तद्वद्भगवान् शास्त्रवर्त्मभिः, क्रियया क्रतुभिर्दानैस्तपःस्वाध्यायमर्शनैः, आत्मेन्द्रियजयेनापि सन्न्यासेन च कर्मणां, योगेन विविधाङ्गेन भक्तियोगेन चैव हि, धर्मेणोभयचिह्नेन यः प्रवृत्तिनिवृत्तिमान्, आत्मतत्त्वावबोधेन वैराग्येण दृढेन च, ईयते भगवानेपि सगुणो निर्गुणः स्वदृक् प्रावोचम् भक्तियोगस्य स्वरूपम् ते चतुर्विधम् कालस्य चाव्यक्तगतेर्योऽन्तर्धावति जन्तुषु जीवस्य संसृतिर्भव्यैरविद्या कर्म निर्मिताः या स्वङ्ग प्रविशन्नात्मा न वेदगतिमात्मनः नैतत्खलायोपदिशेन्नाविनीताय कर्हिचित् न स्तब्धाय न भिन्नाय नैव धर्मध्वजाय च न लोलुपायोपदिशेन्न गृहारूढचेतसे न भक्ताय च मे जातु न मद्भक्तद्विषामपि श्रद्दधानाय भक्ताय विनीताय न सूयवे भूतेषु कृतमैत्राय शुश्रूषाभिरताय च बहिर्जातविरागाय शान्तचित्ताय दीयताम् निर्मत्सराय शुचये यस्याहम् प्रेयसाम् प्रियः य इदम् शृणुयादम्ब श्रद्धया पुरुषः सकृत् यो वाभिधत्ते मच्चित्तः स हियेति पदवीम् च मे ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीयस्कन्धे कापिलेये द्वात्रिंशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।